आरम्भं करोतु भगिनि, आरम्भं कुर्मः। अस्तु
अस्तु भगिनि,
विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा। ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्। संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्। आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्। वन्दे संस्कृतमातरम्। नमस्कारः। किञ्चित् पुनस्मारणं कृत्वा अद्यतनपाठं द्रक्ष्यामः। द्वित्र श्लोकाः अस्माभिः पठिताः, गद्यभागश्च पठितः गतवर्गे। तत्र आञ्जनेयस्य आकारः, सीतायाः मनसि विश्वासम् उत्पादयितुम् आञ्जनेयः विशालरूपधरः जातः। तदा तस्य पुरतः सागरः अपि अत्यन्तं लघु दृष्टः इति विचारः। सः च श्लोकः एवमासीत्, महामहीद्रसद्भ्रीचिं सूर्यं वृद्धिम् उपेयिवान्, यया नूनम् अपां राशिः कुल्यातुल्यां दशां दधौ। महीद्रः इत्युक्ते पर्वतः, सद्भ्रीचि इत्युक्ते सदृशी। कृतं किमर्थं सदृशी इति स्त्रीलिङ्गशब्दः इत्युक्ते वृद्धिः इत्यस्य शब्दस्य विशेषणत्वेन अस्ति। महा महीधर पर्वतसदृश वर्धनं, पर्वतसदृशं वर्धनं प्राप्तवान्, उपेयिवान्। येन वर्धनेन अपां राशिः, सागरः अपि कुल्या इव ददर्श इति विचारः। पुनः हनुमतः तद्रूपं दृष्ट्वा सीतादेवी अपि मुदिता, अत्यन्तं सन्तुष्टा। अतः सा आञ्जनेयं वदति, हे कपिश्रेष्ठ, तव किम् असाध्यं, सर्वमपि साध्यमेव। आगमनसमये त्वं चरणाभ्यामेव सागरं लङ्घितवान्, अतः तव किमपि असाध्यं नास्ति इति अहं सम्यक् जानामि। किन्तु मया सह गमनेन एव तव अपायः अस्ति, यतः राक्षसेन प्रेरिताः, राक्षसेन आदिष्टाः, राक्षस राजेन रावणेन आदिष्टाः राक्षसाः त्वम् अनुगच्छेयुः, त्वाम् अनुगच्छेयुः। त्वाम् अनुगच्छन्ति चेत् युद्धं भवति, तेन अपायः सञ्जायते। अतः अहं मम आगमनं त्वया सह निवारयामि, उचितम् इति न अनुचितम् इति चिन्तयामि इति सीतादेव्याः कथनम्। सः श्लोकः अग्रिमः श्लोकः। अथ तमुवाच सा जनकराजसुतामुदिता, किमु तव दुष्करं चरणलङ्घितवारिनिधेः, अपि तु मया सह प्लवगपुङ्गव यास्यसि चेत् नियतम् अपायिनी परिणमेत् भवतः पदवी इति सीतादेवी वदति। अपायिनी भवेत् इत्युक्ते सङ्कटबहुला भवेत् तव पदवी, तव मार्गः सङ्कटबहुलः भवेत्, अपायः अपायकरः भवेत्। अतः अहं त्वया सह गन्तुं नेच्छामि, उचितम् इति नास्ति, उचितं नास्ति इति वदति. पुनरपि अन्यत् अपि कारणं वदति. एकं तु कारणं त्वया सह गमनेन तव एव क्लेशः भवति. द्वितीयं कारणम् अग्रिमश्लोके वदति सीतादेवी, यद्यपि अहं मम पातिव्रत्य अग्निना एव अहं रावणं दग्धुं शक्नुयां, तथापि मया वा त्वया वा रावणस्य मारणं न उचितम्. कारणं किं? श्रीरामस्य बाणेन एव रावणस्य वधं भवेत्. रामबाणः पिपासितः अस्ति रावणस्य रक्तं पातुम् इति वदति. अतः तदेव सर्वोचितं भवति, रामहस्तादेव रावणस्य मारणं भवेत्. तद् सः श्लोकः, अग्रिमः श्लोकः, पातिव्रत्य हुताशनेन यदितं कुर्यामहं भस्मसात् सत्यं दाशरथे शरस्य न भवेत् आत्मोचितापारणा किञ्चैतस्य यशो निशापतिरपि प्रम्लानकान्तिर्भवेत्. प्रातःशासित रावणे रघुपतौ यात्रा मम श्रेयसी. अतः रामेण शासितः भवति, निगृहीतः भवति भवेत् रावणः, तदनन्तरमेव मम इतः गमनम् उचितम् इति सीतादेवी निवेदयति. इदानीम् अद्यतनं पाठं पश्यामः. गत वर्गस्य पाठे शासितरावणे इति पदमासीत् अस्मिन् पद श्लोके. शासितः रावणः येन सह, शासितरावणः इति श्रीरामस्य विशेषणपदम्. येन रावणः निगृहीतः, नियन्त्रितः भवति. अतः शासितः रावणः येन सह रघुपतिः इति अस्य विशेषणम्. अनन्तरम् एकं लघुवाक्यमासीत्, एवं व्याहृतः पवनसुतः विनीतां सीतां पुनः अपि आबभाषे. एवम् उक्तः हनुमान्, शासितरावणे सति एव मम इतः गमनम् उचितम् इति उक्तवती किल सीतादेवी, तद् वचनम्. एवम् उक्तः व्याहृतः पवनसुतः विनीतां सीतां, विनम्रां सीतां, विनयशीलां सीतां पुनः अपि आबभाषे उक्तवान्, पुनः भाषितवान्. तदेव अत्र अद्यतनश्लोकः. सः वदति, हे देवी, भवती यद् वदति तद् सर्वथा उचितमेव. यदि अहं त्वां नयेयम् अथवा यदि त्वमेव रावणं दण्डयसि तर्हि लोके किं का वार्ता प्रसरेत्, एषा वार्ता प्रसरेत् इति रामेण किमपि न कृतम्. एते एव आत्मानं स्वयम् एते एषा आत्मानं रक्षितवती अथवा हनुमान् तद् कार्यं साधितवान्. किन्तु रामबाणस्य कृते एव तद् श्रेयः, क्रेडिट् गच्छेत् किल. अतः आञ्जनेयः अत्र अस्मिन् श्लोके सीतायाः वचनस्य अनुमोदनं करोति, तस्य वचनं, तस्याः वचनम् अङ्गीकुर्वन् वदति. इदानीमहं श्लोकभागं पठामि पङ्क्तिशः, भवन्तः अपि पठन्तु. माया मृगेण तव मैथिली वञ्चितायाः, शाखा मृगेण पुनरागतिरित्ययुक्तम्, एषा कथापि भुवने वित्तता यदि स्यात्, नानामरामधनुषः प्रथिता प्रशस्तिः, अस्य पदच्छेदं पश्यामः मायामृगेण तव मैथिली इति सम्बोधनं वञ्चितायाः शाखामृगेण पुनरागतिः इति अयुक्तम् एषा कथा अपि भुवने वितता यदि स्यात् का नाम रामधनुषः प्रथिता प्रशस्तिः अदौ प्रतिपदार्थं पश्यामः चेत् वयं किञ्चित् अन्वये सारल्यम् अनुभवामः अतः एव अहं प्रतिपदार्थम् इदानीं वदामि प्रथमपदं पदच्छेदे पदच्छेदक्रमे एव प्रतिपदार्थः अत्र उक्तः मायामृगेण पश्यतु अत्र सुन्दरपदप्रयोगः कृतः अस्ति कविना मायामृगः शाखामृगः मृगः इत्युक्ते एकं तु हरिणः इति भवति द्वितीय अर्थः सामान्यजन्तुः सर्वे अपि मृगाः जन्तवः पशवः मृगः वानरः इति अत्र मायामृगेण वञ्चिता सीता किल कः सः मायामृगः मारीचः मारीचः हरिणस्य रूपं धृत्वा आकृष्टवान् सीतां सीता रामं श्रीरामं प्रेषयति तद् आनेतु अतः वञ्चिता अभवत् एकमृगेण वञ्चिता पुनः अपरमृगेण रक्षिता चेत् तर्हि तत्र रामधनुषः तत्र किं वैशिष्ट्यं स्यात् इति आञ्जनेयः वदति मायामृगेण मायया स्वर्णमृग मृगरूपधृतेन मारीचेन तव इत्युक्ते सीतायाः मैथिली सम्बोधनपदं हे जानकी वञ्चितायाः छलेन अपहृतायाः छलेन सा वञ्चिता अभवत् शाखामृगेण अत्र शाखामृगः हनुमान् वानरेण किमर्थमत्र वाहनभूतवानरेण इत्युक्तं यदि शाखामृगः अत्र रावण हनुमानेव यदि सीतादेव्याः गमनाय वाहनं भवेत् तर्हि सा तद् शाखामृगद्वारा गमनम् इति भवति किल अतः वाहनभूतवानरेण पुनरागतिः प्रत्यागमनं कुत्र किष्किन्धां प्रति यत्र रामः अस्ति तत्र अयुक्तम् अनुचितम् एषा कथा अपि इयं वार्ता भुवने लोके वितता वितता इत्युक्ते प्रसृता तनोति इत्यस्य तप्रत्ययः वितता वितता यदि स्यात् का नाम रामधनुषः किं नाम रामचापस्य प्रथिता प्रशस्तिः सुविख्यातं वैभवम् न किमपि वैभवं भवति किल रामधनुषः वैशिष्ट्यं किमपि न शिष्यते यतः एतैः एव कार्यं सिद्ध्यति चेत् रामधनुषः तत्र प्राशस्त्यं न सिद्ध्यति अतः अहमपि अङ्गीकरोमि यत् हे जानकी तव मया सह आगमनं प्रत्यागमनम् अनुचितम् इति आञ्जनेयः अङ्गीकरोति इदानीम् आकाङ्क्षया पश्यामः हे मैथिली अत्र क्रियापदम् अध्याहृतमस्ति भवति किं भवति श्लोकमेव भवन्तः पश्यन्ति चेत् सरलं भवति अहम् आकाङ्क्षां पठामि भवति इति क्रिया किं भवति अयुक्तं भवति अनुचितं भवति किम् इति अयुक्तं पुनरागतिः प्रत्यागमनं कस्याः पुनरागतिः तव कीदृश्याः तव वञ्चितायाः केन वञ्चितायाः तव मायामृगेण मारीचेन केन पुनरागतिः एकेन वञ्चिता एकमृगेण वञ्चिता अपरमृगेण रक्षिता इति अत्र तात्पर्यं केन पुनरागतिः शाखामृगेण हनुमता वानरेण अग्रिमक्रियापदमस्ति द्वितीयं क्रियापदं यदि स्यात् का स्यात् कथा वार्ता कीदृशी कथा एषा कथा, का कथा इत्युक्ते मायामृगेण वञ्चिता शाखामृगेण रक्षिता इति कथा, कथं भूता कथा वितता प्रसृता, सर्वत्र एषा कथा प्रसरति किल, सा प्रसृता कथा, कुत्र वितता भुवने लोके। तर्हि पुनः तृतीयं क्रियापदं का नाम भवति, भवति इति क्रियापदं तत्र अध्याहृतं, का भवति प्रशस्तिः भवति, प्रशस्तिः इत्युक्ते प्रसिद्धिः, कीदृशी प्रशस्तिः प्रथिता प्रशस्तिः, प्राशस्त्यम् इत्युक्ते श्रेष्ठत्वम्, कस्य प्रशस्तिः रामधनुषः प्रशस्तिः, अस्य भावार्थः भवति हे जानकी पूर्वं कनकमृगेण सदृशं दृश्यमानेन मारीचेन त्वं विमोहिता वञ्चिता, ततः छद्मवेषी रावणः छलेन त्वामत्र आनीतवान्, एतत् सर्वथा अनुचितम्, इदानीं वानरेण मया तव प्रतिनयनम् अपि न युक्तम्, अतः मायामृगेण वञ्चिता सीता रामात् अपनीता, पुनः शाखामृगेण रक्षिता सती रामम् उपनीता भवति चेत्, रामस्य समीपं नीता भवति चेत् भवति इति वार्ता यदि लोके प्रसरति तर्हि लोकप्रसिद्धस्य रामचापस्य कीर्तिः नष्टा भवेत्। अतः इतोपि कतिचन दिनानि यावत् धैर्यं धारय हे देवी, शीघ्रमेव श्रीरामः शत्रुं निर्जित्य त्वाम् इतः नेष्यति इति आञ्जनेयस्य कथनस्य तात्पर्यम्। शीघ्रमेव त्वाम् इतः नेष्यति, अत्र मायामृगः शाखामृगः इति पदयोः प्रयोगेण चमत्कृतिम् आनीतवान् कविः। मायामृगेण वञ्चिता शाखामृगेण पुनरागतिः प्रत्यागमनम्। एकवारं श्लोकं पठित्वा गद्यभागं पठामः। मायामृगेण तव मैथिलिवञ्चितायाः शाखामृगेण पुनरागतिरित्ययुक्तम्, एषा कथापि भुवने वितता यदि स्यात्, का नाम रामधनुषः प्रथिता प्रशस्तिः। इदानीं गद्यभागं पश्यामः। प्रथमं गद्यभागं पठामः, अनन्तरम् अस्मिन्नेव गद्यभागे विद्यमानवाक्यानां अन्वयं भावार्थं च पृथक् पृथक् पश्यामः, तेन किञ्चित् अवगमने सारल्यं भवति। अहं पठामि गद्यभागं, कृपया पठन्तु। किं बहुना एतदेव चिन्तितम्, यदर्हं राघव गृहिण्याः तदेव निश्चितम्, यत्सदृशम् ईदृशस्य समाचारस्य प्रकाशितम्,
तदेव प्रकाशितम्
यदनुगुणम्,
यदनुगुणम्
रावणापराधप्रतिक्रियायाः,
रावणापराधप्रतिक्रियायाः
तदेव अनुमोदितम्,
तदेव अनुमोदितम्
यदनुकूलम्,
यदनुकूलम्
कुलवधूशीलस्य,
कुलवधूशीलस्य
तदेव कथितम्,
तदेव कथितम्
यदुचितं क्षत्रियाणि वाणीप्रक्रमस्य,
यदुचितं क्षत्रियाणि वाणीप्रक्रमस्य,
यदुचितं क्षत्रियाणि वाणीप्रक्रमस्य तदेव उपक्रान्तम्,
तदेव उपक्रान्तम्
బహుశః ప్రశస్య రామలక్ష్మణౌ లంకాం ఇమాం ప్రాప్తౌ ఇతి జానకి జానీహి అనుజానీహి ఇమం జనం ప్రస్థాతుం అత్ర సీతాదేవ్యాః ఆంజనేయస్య కథనం. సీతాదేవి పునర్ ఉక్తవతీ కిల మమ గమనం అనుచితం ఇతి, తస్య అనుమోదనం కుర్వన్నేవ మాయామృగేణ ఆనయ తవ అత్ర వంచనయ ఆనయనం శాఖామృగేణ ప్రతినయనం చ అనుచితం హే దేవి ఇతి యద్ వదతి తస్య ఏవ అగ్రే అంగీకార వచనం వదతి ఆంజనేయః. కిం బహునా కిం వక్తవ్యం కిం అధికేన కథనేన ఇది వదతి. కిం బహునా ఇతి ఏతదేవ చింతితం, ఇత్తం భవత్యా యద్ విచారితం చింతితం తద్ ఉచితం. ఏతదేవ చింతితం ఇత్యుక్తే ఇత్తం భవత్యా విచారితం ఉచితమేవ యత్ అహం రాఘవ గృహిణ్యాః, యత్ అర్హం రాఘవ గృహిణ్యాః తదేవ నిశ్చితం. శ్రీరామస్య ధర్మపత్న్యాః సర్వథా అనురూపః అస్తి భవత్యాః నిర్ణయః. శ్రీరామస్య ధర్మపత్ని యాదృశం నిర్ణయం కుర్యాత్ తాదృశం నిర్ణయం ఏవ భవతి అపి కృతవతి అస్తి. సర్వథా ఉచితం అస్తి భవత్యాః నిర్ణయః, ఉచితః అస్తి. అత్ర సర్వత్ర సదృశం సదృశం ఇతి యత్ పదం అస్తి తద్ ఉచితం ఇతి అర్థం, కులోచితం అనురూపం ఇతి అర్థః. తత్ర యః గుణః తస్యాం అపేక్షితః సర్వః అపి సః గుణః తస్యాం అస్తి ఇతి బోధయితుం వదతి. యత్ సదృశం ఈదృశస్య సమాచారస్య తదేవ ప్రకాశితం. సమాచారః ఇత్యుక్తే ఆచారః వ్యవహార ఆచరణం ఇతి అర్థః. పాతివ్రత్య ధర్మపాలనం ఇతి అస్తి కిల సహ ఏవ అత్ర ఆచారః, సమ్యక్ ఆచారః సమాచారః. పాతివ్రత్యం ఇతి యః ఉత్కృష్టః ధర్మః అస్తి సహ ఏవ ధర్మః భవత్యా నిరూఢః, సహ ఏవ ధర్మః భవత్యా పాలితః. యత్ సదృశం ఈదృశస్య సమాచారస్య తదేవ ప్రకాశితం. ప్రకాశితం ఇత్యుక్తే ధర్మపాలనం కృతం. యత్ అనుగుణం రావణాపరాధ ప్రతిక్రియాయాః తదేవ అనుమోదితం. పునః రావణః యాదృశం అపరాధం కృతవాన్ తాదృశస్య అపరాధస్య ఉచిత ప్రతిక్రియా భవేత్ కిల సీతాదేవ్యాః పక్షతః. తస్య తర్జనం తస్య ఖండనం తస్య వచనస్య ఖండనం ధైర్యేణ తస్య సమ్ముఖీకరణం తత్సర్వం కృతవతీ సీతాదేవి. రాత్రౌ ఆంజనేయః శింషపావృక్షే ఆరూఢ పత్రాణాం పృష్ఠతః సః దృష్టవాన్. సీతాదేవి ధైర్యేణ ఏవ రావణస్య సమ్ముఖీకరణం కృతవతి, కదాపి దైన్యం న ప్రకటితవతి. కథమపి మాం సంరక్ష మమ రక్షణం కురు ఇతి న ఉక్తవతి. యద్ ఇచ్ఛసి తద్ కురు, అహం కదాపి తవ దాస్యం న స్వీకరోమి ఇతి ఏవ ఉక్త్వా తం ప్రేషితవతి ఇతి వయం దృష్టవంతః. అతః యద్ అనుగుణం రావణ అపరాధ ప్రతిక్రియాయాః యా ప్రతిక్రియా విధేయ సా ఏవ ప్రతిక్రియా త్వయా విహితా ఉచితమేవ ఆచరితం భవత్యా ఇతి అంజనేయ వదతి. రావణస్య దుశ్చేష్టితస్య యాదృశీ ప్రతిక్రియా భవేత్ తత్తుల్యా ప్రతిక్రియా ఏవ భవత్యా అనుమత. యదనుకూలం కులవధూశీలస్య తదేవ కథితం. కులాంగనాయాః చరితస్య యదుచితం తదేవ భవత్యా ఉక్తం. ఉత్తమకులే జాత అభిజాత अभिजात्यम् इति वदन्ति किल, उत्तमकुले ये जाताः ते यथा सम्भाषणं कुर्वन्ति देशं कालं सम्यक् ज्ञात्वा तेन सह कथं भाषणीयम् इति जानती भवती भाषणं कृतवती, तद् सर्वथा उचितम्। यत् उचितं क्षत्रियाणि वाणी प्रक्रमस्य तदेव उपक्रान्तम्। क्षत्रियकुलाङ्गनायाः वचनप्रकारस्य अनुगुणमेव भवत्या वचनम् आदत्तम्। उपक्रान्तम् इत्युक्ते कथनात् पूर्वं मनसि आकलयति किल, के विचाराः, अहं कं विचारं प्रकटीकरोमि, अतः तादृशः विचारः एव भवत्या आदत्तम्। सुविचिन्त्य सम्यक् उक्तम् इति अर्थः। कथम् उक्तं, केन सदृशं, कया सदृशम् इत्युक्ते क्षत्रियकुलाङ्गना यथा वदेत् तथा धैर्येण वक्तव्यं भवति उक्तवती इति बहुशः प्रशस्य इति सीतावचनं श्लाघितवान् आञ्जनेयः इति बहुशः प्रशस्य सर्वथा रामलक्ष्मणौ लङ्कामिमां प्राप्तौ आगतवन्तौ इति एव अवगच्छ। शीघ्रमेव अत्र प्राप्स्यतः, वस्तुतः भविष्यत्काले एव, इदानीमपि ते लङ्कायाः तस्मिन् तीरे एव सन्ति, लङ्कां न प्राप्तौ, किन्तु लङ्कामिमां प्राप्तौ स्तः इत्युक्ते कः अर्थः? अवश्यम् आगच्छतः, अवश्यम् आगमिष्यतः। यदा वयं सम्भाषणे अपि वर्तमानकालस्य प्रयोगं कुर्मः, भवती मम गृहम् आगमिष्यति वा इति एव प्रश्नः, किन्तु अहं यदि आगच्छामि, श्वः आगच्छामि इति वदामि, तत्र दोषाय न, कारणम् आगच्छामि इति यद्यपि भविष्यत्कालः, तत्र कालः भविष्यत्कालः, किन्तु लकारः वर्तमान, लट् लकारस्य प्रयोगः कृतः, तथापि आगच्छामि इति कथनेन यदि निश्चयार्थः बोधितः तर्हि साधुप्रयोगः इति उच्यते। तथा अत्र लङ्कामिमां प्राप्तौ स्तः इत्युक्ते किम्? अवश्यम् आगमिष्यतः इति अर्थः, निश्चयेन अत्र तौ भवतः, तत्र शङ्का मास्तु इति। इति जानकी जानीहि अवगच्छ, अनुजानीहि इमं जनं प्रस्थातुम्, इमं जनं भवत्याः पुरतः विद्यमानं मां प्रस्थातुम् अनुजानीहि त्वम् अनुज्ञां ददातु, आज्ञापयतु, अहम् इतः, मम इतः गमनाय अनुमतिं देहि इति आञ्जनेयः सीतादेवीं वदति। अत्र ज्ञाधातोः उपसर्गपूर्वकज्ञाधातोः केचन प्रयोगाः अत्र सङ्गृहीताः, तद्विषये किञ्चित् पश्यामः। ज्ञा इति धातोः अवबोधने इति अर्थः, जानाति, उभयपदी भवति, जानाति जानीते, जानाति जानीतः जानन्ति इति भवति, आत्मनेपदीरूपमपि भवति। उपसर्गपूर्वक केचित् प्रसिद्धप्रयोगाः एव अत्र दत्ताः। अनुजानाति इत्युक्ते किम्? अनुमन्यते, अनुमतिं ददाति इति अर्थः। अभिजानाति इत्युक्ते अभिज्ञानम्, अभिज्ञानशाकुन्तलम् इति शृणुमः, अभिज्ञानम् इत्युक्ते परिचयः, परिचिनोति, अभिजानाति, रेकग्नैज् इति अर्थः। अवजानाति इत्युक्ते तिरस्करोति, अवगणयति, अवजानन्ति मां मूढाः मानुषीं तनुमाश्रितम् इति श्रीमद्भगवद्गीतायाः वाक्यम्। हे अर्जुन, मां मानुषीं तनुमाश्रितं सामान्यम् इति केचन माम् अभक्ताः, मूढाः अवजानन्ति, तिरस्कुर्वन्ति, मम माहात्म्यं न जानन्ति इति श्रीकृष्णः वदति। परिजानाति, परिसमन्तात् ज्ञानं, सम्यक् जानाति इति अर्थः। अनन्तरम् अपप्रति इति उपसर्गौ भवतः चेत् आत्मनेपदी प्रयोगः एव भवति, परस्मैपदी न भवति. अपजानीते इत्युक्ते गोपयति, वारणं करोति, गोपयति, गुह्यं स्थापयति. अपजानीते कन्सील्. प्रतिजानीते प्रतिश्रुतिं करोति, प्रामिस्. प्रतिजानीहि इति अस्ति किल, प्रतिजानीते प्रतिश्रुतिं करोति, प्रतिज्ञां करोति इति प्रसिद्धं प्रसिद्धप्रयोगः. निच् निच् प्रयोगे अपि द्वित्र प्रसिद्धप्रयोगाः अत्र दत्ताः. आ अनन्तरं ज्ञाधातोः, आज्ञापयति, आदिशति, आज्ञां ददाति, आज्ञापयति. विज्ञापयति इत्युक्ते निवेदयति, वदति. इदानीम् आञ्जनेयः सीतां सुग्रीवस्य प्रयत्नविषये, श्रीरामस्य अवस्था दशाविषये, लक्ष्मणस्य दशाविषये सीतादेवीं विज्ञापयति, ज्ञापयति, वेदयति, निवेदयति इति अर्थः. एवं ज्ञा धातोः उपसर्गपूर्वकप्रयोगाणां किञ्चित् अत्र सङ्कलनमासीत्. अग्रे गद्यवाक्यं, लघुवाक्यमस्ति, पुनः अपि एकं वाक्यमस्ति. आञ्जनेयः सम्यक् सीतादेवीं प्रशस्य, सीतादेव्याः वचनं श्लाघितवान्. ततः परं किम् उक्तवान्? हे देवी, इदानीम् अहं गन्तुम् उद्युक्तः, कृपया किमपि तादृशं किमपि वस्तु ददातु यत् येन अभिज्ञानं भवति. रामः तद्वस्तु दृष्ट्वा विश्वसेत् यत् अहं भवतीम् आगत्य अत्र दृष्टवान् इति. काकुत्स्थेन विदितपूर्वम् अभिज्ञानं किमपि दीयताम् इति. काकुत्स्थेन विदितपूर्वम् अभिज्ञानं किमपि दीयताम् इति वदति आञ्जनेयः. हे देवी, मम प्रस्थानाय अनुमतिं ददातु. किञ्च इति अस्ति किल, इत्युक्ते किं? प्रस्थानाय अनुमतिं ददातु, इदमपि ददातु. किं किं दातव्यम्? किमपि अभिज्ञानं, किमपि वस्तु यत् दृष्ट्वा रामः विश्वसेत्. श्रीरामेण विदितपूर्वं, ज्ञातपूर्वं, रामेण, रामः जानीयात् तद्वस्तु भवत्याः इति. श्रीरामेण ज्ञातं तादृशं किमपि वस्तु ददातु यत् दृष्ट्वा भवती मया दृष्टा इति श्रीरामः विश्वसेत्. दृष्टा सीता इति आञ्जनेयस्य प्रसिद्धं वचनमस्ति किल, दृष्टा सीता इति. भवती मया दृष्टा इति अहं असत्यमपि, असत्यवादी यदि अहं स्यां, तर्हि किं किमपि वस्तु भवत्याः हस्तात् दत्तं चेत् भवत्याः सकाशात् एतद् आनीतम्, अतः निश्चयेन एषः सीतां दृष्टवान् इति रामस्य मनसि विश्वासः भवेत्. अथवा श्रीरामं हताशं कर्तुम् अनिच्छन् यदि अहं कञ्चित् कालम् असत्यं वदेयं चेत् किं भवेत्? अतः निश्चयेन वस्तु किमपि दीयते चेत् रामस्य आश्वासनं दृढं भवति यत् अहं भवतीं दृष्टवान् अस्मि इति. इदानीं गद्यवाक्यं. सीतादेवी चूडामणिं ददाति इति वयं जानीमः. ततः पूर्वम् एकां घटनां निवेदयति यत् रामसीतयोः मध्ये एव प्रवृत्ता घटना. सा घटना अन्यः कोऽपि न जानाति. किमर्थं तां घटनां सीतादेवी आञ्जनेयम् अत्र वदति इत्युक्ते तृतीयः न जानाति तादृशीं घटनां यदि आञ्जनेयः वदति चेत् निश्चयेन एषः सीतां दृष्ट्वा एव आगतवान् इति विश्वासः दृढतरः दृढतमः भवेत्। अतः तां घटनां श्रावयति सीतादेवी। सा तु दीर्घं निःश्वस्य निश्चित्य पुरा खलु चित्रकूटतटवने
तरुरमणीयतया
रघुनन्दनेन उपधानीकृताङ्गायाः
मम पयोदरपरिसरे
हरतरनखाग्रविरचितविदारणम् धाराधरनामानं काकम्
रघुपतिः विलोकयत्
अत्र केषाञ्चन पदानाम् अर्थम् अवगच्छामः चेत् गद्यभागस्य अवगमनं सरलतरं भवति। प्रथमपङ्क्तौ पश्यामः, चित्रकूटतटवने। चित्रकूटतटम् इत्युक्ते चित्रकूटपर्वतः अस्ति, तस्य सानुभागः भवति किल स्लोप्, तत्र तस्मिन् भागे इति अर्थः। तरुरमणीयतया, यत्र तरुणवृक्षाः इत्युक्ते इदमिदानीं वर्धमानाः, इदानीमपि वर्धनं प्राप्नुवन्तः सन्ति, पूर्णतया न वृद्धाः वृक्षाः, तरुणाः वृक्षाः, युवानः वृक्षाः, वर्धमानाः वृक्षाः। तरु इत्युक्ते वृक्षः, रमणीयतया तेषां सौन्दर्यम्, तरुणवृक्षाणां सौन्दर्येण। मन्दीभवन् नन्दवैभवे, नन्दनवैभवः, नन्दनवैभवं किम्? नन्दनवनम् इत्युक्ते देवलोकवनम् अपि एतस्य चित्रकूटवनसौन्दर्यस्य पुरतः मन्दायते, मन्दतां प्राप्नोति। अतः चित्रकूटवनसौन्दर्यं नन्दनवनसौन्दर्यमपि अतिरिच्य विलसति इति भावः अत्र। मन्दीभवन् नन्दनवैभवे, रघुनन्दनेन उपधानीकृताङ्कायाः मम पयोधरपरिसरे। उपधानीकृताङ्कायाः इत्युक्ते रामः यदा शयनं कृतवान् आसीत् तस्मिन् समये भूमौ, तत्र रामस्य शिरः कुत्र निहितः आसीत् इत्युक्ते सीतायाः अङ्के। अतः सीतायाः अङ्कमेव उपधानीकृत्य सः शेते स्म इति अर्थः। खरतरनखराग्रविरचितविदारणं, तस्मिन् समये किम् अभवत्, कश्चन काकः समीपम् आगतः, सः स्वस्य नखानाम् अग्रभागैः सीतायाः पक्षसि क्षतम् उत्पादितवान्, विदीर्णवान्, विदारणं कृतवान् इति अर्थः। इदानीं वयम् एकैकं पदं पश्यामः। धाराधरः इति तस्य काकस्य नाम, वस्तुतः अन्यनाम अस्ति, काकासुरः, जयन्तः, इन्द्रपुत्रः, जयन्तः इति तस्य प्रसिद्धं नाम, इन्द्रस्य पुत्रः। सा तु सीतादेवी दीर्घं निःश्वस्य, दीर्घनिःश्वासं कदा वयं कुर्मः, श्वासत्यागं, यदा बहु चिन्ताकुलाः भवेम अथवा शोकाकुलाः भवेम तदा। अतः दीर्घं निःश्वस्य, काञ्चित् दुःखदायिनीं घटनां स्मरामः चेदेव दीर्घं विश्वस्य कश्चन अग्रे वदति, तथा सीतादेवी दीर्घं विश्वस्य निश्चित्य पुनः निर्णयं स्वीकृतवती. आम्, एतां घटनां यद्यपि अवयोः मध्ये, पतिपत्न्योः मध्ये सञ्जाता काचित् घटना, सा सार्वजनिके न वक्तव्या, किन्तु इदानीं वक्तव्यम् आपतितमस्ति, अतः वदामि इति निश्चित्य, निश्चयं कृत्वा उक्तवती. किम् उक्तवती? पुरा खलु पूर्वं कदाचित् चित्रकूटतटवने, चित्रकूटपर्वतस्य सानुभागे विद्यमानवने तरुणरमणीयतया तरुणवृक्षाणां सौन्दर्येण मन्दीभवन् नन्दनवैभवे. यत् नन्दनवैभवमस्ति तत् देवलोकवनं, नन्दनवनं, तद् तदपि मन्दायते चित्रकूट वनसौन्दर्यस्य पुरतः. तादृशी चित्रकूटतटवने रघुनन्दनेन उपधानीकृताङ्कायाः मम, रघुनन्दनः रामः, रामेण मम अङ्कः एव उपधानीकृतः आसीत् तस्मिन् समये. रामः मम अङ्कम् उपधानरूपेण उपयुक्तवान्, प्रयुक्तवान्, तत्र तस्य शिरः निहितः. मम इत्युक्ते अत्र सीतादेव्याः, मम पयोधरपरिसरे, मम स्तनभागे खरतरनखराग्रविरचितविदारणं तीक्ष्णतरतीक्ष्ण नखानाम् अग्रभागैः कृतं क्षतम्, उत्पादितं क्षतं, व्रणम्, धाराधरनामानं काकं. केन तादृशं कृतं? धाराधरः इति कश्चन काकः, तं काकं रघुपतिः व्यलोकयत्. सीतादेवी दृष्टवती तं, कष्टमपि सोढवती, किन्तु रामः जागरणं न प्राप्नुयात् इति किञ्चित् कालं स कथञ्चित् तद् वेदनां, तां वेदनां, वेदनायाः सहनं कृतवती, किन्तु तावता श्रीरामः जागरितः अभूत्, सः दृष्टवान्, व्यलोकयत्, सः अपश्यत्. अस्य भावः अस्ति, सीतादेवी सविषादं विचिन्त्य, दुःखेन विचिन्त्य दीर्घं निश्वस्य अभिज्ञानोचितं वृत्तान्तं कञ्चित् श्रावयेयम्. अभिज्ञानवस्तु तु मया दीयते एव, रामस्य अभिज्ञानाय तादृशीं काञ्चित् घटनां श्रावयामि यत् श्रुत्वा श्रीरामः निश्चयेन नूनं विश्वसेत् यत् आञ्जनेयः मामेव दृष्टवान् इति. पूर्वं कारणमस्ति, माया लोके अस्ति किल, एषः मायावी अस्ति रावणः, ते माया मायाम् उपयुज्य काञ्चित् अन्यामपि दर्शयेयुः सीता इति. अतः द्वयोर्मध्ये सञ्जाता घटना उच्यते चेत् अवश्यम् अन्यः, अपरः, तृतीयः न जानाति इति. तादृशीं घटनां यदि सीता निवेदयति तर्हि निश्चयेन रामस्य विश्वासः भवेत् यत् सीता दृष्टा एव. पूर्वं चित्रकूटपर्वतस्य समीपस्थवने यदा वयम् उषितवन्तः इति सीतादेवी वदति, वयम् इत्युक्ते श्रीरामः, लक्ष्मणः, सीता च, इयं घटना संवृत्ता. का घटना? तत् वनं देवलोकवनादपि सुन्दरतरं वनं. तत्र यदा श्रीरामः मम अङ्के शिरः निधाय शेते स्म, तदा धाराधरः नामकः काकासुरः अतितीक्ष्णैः अग्रनखैः मदीयं स्तनतटं विदारितवान्. तथा मां क्षतग्रस्तां कारयन्तं तं काकासुरं रघुपतिः अपश्यत्, व्यलोकयत्, दृष्टवान् इति. दृष्ट्वा किं कृतवान् इति अग्रिमश्लोकः. श्लोकं पठामः. कुशरूप कुशेशयासनास्त्रम्
कुशरूप कुशेशयनासनास्त्रम्
विजहौ वास विवायसे स वीरः
विजहौ वास विवासये स वीरः
वासवि वायसे अथ तत्कृपया हृताक्षिमात्रः
अथ तत्कृपया हृताक्षिमात्रः
चिरजीवी सदधौ यथार्थसंज्ञाम्
चिरजीवी सदधौ यथार्थसंज्ञाम्
श्रीरामः तं दृष्ट्वा कुशरूपम् अस्त्रं क्षिप्तवान्. यत्र श्रीरामः शेते स्म एकम् अधः भूमौ कुशानाम् आस्तरणम् आसीत्, कुशानाम् एकम् आसनम् आसीत्. ततः एकं कुशं निष्कास्य किं कृतवान्? तदेव अभिमन्त्रितवान्, ब्रह्मास्त्ररूपेण तत् परिवर्त्य प्रेषितवान्. कं प्रति? एतं काकासुरं प्रति. विजहौ त्यक्तवान्, विसृष्टवान्. वासवि वायसे स वीरः, इन्द्रपुत्रः वासविः सः एव इदानीं काकः तं प्रति क्षिप्तवान्. अथ तदनन्तरं बाणक्षेपणान्. अत्र दीर्घा कथा अस्ति, किन्तु अत्र कविः किं कृतवान्? अत्यन्तं संक्षिप्य कथामेनाम् उक्तवान् अस्ति. अतः यदि अस्माभिः किञ्चित् कथाभागः ज्ञायते चेत् एतस्य भावम् अवगन्तुं शक्नुमः सरलतया. सः जयन्तः इन्द्रपुत्रः काकरूपं धृत्वा यः आगतवान्, कुचेष्टितं कृतवान्, तं प्रति ब्रह्मास्त्रं क्षिप्तवान्. ब्रह्मास्त्र इत्युक्ते अभिमन्त्रिततृणं तावदेव. तद् अस्त्रं तं सर्वत्र धावयति, सर्वत्र गतवान् रक्षणं प्राप्तुं. पितरम् अपि, पितुः समीपमपि गतवान्. पिता इन्द्रः किम् उक्तवान्? मया रक्षितुं न शक्यते, त्वम् इतः गच्छ. अन्य महर्षीन् अपि सः उपगतवान्, किन्तु केनापि रक्षितुम् अशक्यम् अभवत्. अतः सर्वत्र त्रीन् लोकान् अपि परिक्रम्य सः साक्षात् रामसकाशम् आगतवान्. तदा रामस्य कृपया एव, यद्यपि सः अत्यन्तं कुचेष्टां कृतवान्, तस्य चेष्टायाः कुचेष्टायाः फलं तु मरणदण्डनमेव भवेत्, किन्तु कृपालुः भक्तवत्सलः साक्षात् एषः काकासुरः रामस्य चरणयोः पतितवान् इति कारणेन कृपालु श्रीरामः तं तस्य वधं न कृतवान्. तेन अस्त्रेण तस्य एकं नेत्रं मात्रम् अपहृतवान्, तं सजीवं त्यक्तवान्. अतः सः च काकः, काकरूपधरः यः जयन्तः आसीत्, चिरजीवी अभवत्, दीर्घकालम् इतोपि जीवनं प्राप्तवान्. अनन्तरं तस्य नाम अपि यथार्थतां प्राप्नोत् इति. वयं कस्यचित् नाम अस्ति इति चिन्तयतु. कश्चन बलवान् अस्ति, तस्य नाम यदि यदि सः बलवान् अपि अस्ति, तस्य नाम अपि बली इति अस्ति चेत् वयं किं वदामः? अन्वर्थनाम. इत्युक्ते किम्? अर्थम् अनुरूपं नामकरणमपि कृतं. तथैव अत्र एतस्य काकासुरस्य जयन्तस्य नाम किम्? चिरजीवी इति एकं नाम, एकाक्षी इति अपि नाम अभवत्. एकाक्षी अभवत् सः, एकमेव अक्षी तस्य अस्ति इदानीम्, अपरम् अक्षी नष्टमस्ति बाणेन, तर्हि काकस्य अपि एतानि नामानि भवन्ति। काकस्य कानि नामानि भवन्ति? चिरजीवी इति एक नाम भवति, एकाक्षी इति अपि एक नाम भवति। अतः यथार्थसंज्ञां दधौ, सः यद् नाम प्राप्तवान् चिरजीवी इति, तद् उचितमेव इति कविः अत्र वदति। इदानीं पदच्छेदं पश्यामः। कुशरूपकुशेषयान कुशेषयासनास्त्रं विजहौ वासवि वायसे सः वीरः अथ तत्कृपया हृताक्षिमात्रः चिरजीवी सः दधौ यथार्थसंज्ञा। प्रतिपदार्थं पश्यामः। कुशरूपकुशेषयासनास्त्रं, कुशेषयः, कुशेषयः इत्युक्ते ब्रह्मा, कुशेषयासनः इति ब्रह्मा, कुशेषयम् इत्युक्ते पङ्कजम्, कुशे जले शेते इति कुशेषम्, कुशेषयं क्षम्यतां पङ्कजम्, कुशेषयम् आसनं यस्य, सः कः? ब्रह्मा। कुशेषयासनास्त्रं, तस्य अस्त्रं ब्रह्मास्त्रम्, अतः ब्रह्मास्त्रम् इति अर्थः। किं ब्रह्मास्त्रम् अभवत् अत्र? श्रीरामेण एकं लघु तृणरूपम् एकं कुशं स्वीकृत्य तद् अभिमन्त्र्य प्रेषितवान् किल, तदेव ब्रह्मास्त्रं सञ्जातम्। कुशरूपं ब्रह्मास्त्रम् इति अर्थः। विजहौ, विजहौ इत्युक्ते त्यक्तवान्, विसृष्टवान्, अस्त्रं विमोचितवान्। वासवि वायसे, काकरूपधरे इन्द्रपुत्रे, वासवः इत्युक्ते इन्द्रः, वासवस्य अपत्यं पुमान् वासविः, इन्द्रपुत्रः जयन्तः, वासवि वायसे, वायसः इत्युक्ते काकः, अत्र काकरूपधरः इन्द्रपुत्रः, तस्मिन् विसृष्टवान् बाणं, कुशे एतद् ब्रह्मास्त्रं। सः वीरः, कः वीरः? श्रीरामः। अथ बाणत्यागानन्तरं, बाणस्य त्यागस्य अनन्तरं किम् अभवत्? सः सर्वत्र अटित्वा आगतवान् इति विषयः श्रुतः किल। अथ तत्कृपया, श्रीरामस्य कृपया एव हृताक्षिमात्रः नष्टैकनेत्रः, केवलम् एकं नेत्रं तस्य नष्टम्, अन्यथा सः तस्य प्राणाः रक्षिताः अभवन् भगवतः कृपया, श्रीरामस्य कृपया। चिरजीवी सः, लब्धपुनर्जीवनः सः काकासुरः, दधौ अकरोत्, किं कृतवान्? यथार्थसंज्ञां, चिरजीवी इति अन्वर्थनाम दधौ, यथार्थनाम, नाम्नः सार्थक्यं कृतवान्, प्रापितवान् इति अर्थः। यथा नाम तथा तस्य आचरणमपि अभवत्, औचित्यं, नाम्नः औचित्यम् अत्र अभवत् इति अर्थः। आकाङ्क्षा अस्ति, विजहौ, विसृष्टवान्। कः विजहौ? अत्र लिट्लकारः एकवचनम्। श्रीरामः विजहौ, कीदृशः सः विजहौ इति चेत्, वीरः श्रीरामः किं विजहौ? अस्त्रं, कीदृशम् अस्त्रं? कुशरूपं कुशेषयासनास्त्रं विजहौ। कुत्र, कस्मिन् प्रयोगं कृतवान् तदस्त्रं? तस्य अस्त्रस्य प्रयोगं कुत्र कृतवान् इत्युक्ते वासवि वायसे, काकरूपधर इन्द्रपुत्रे कृतवान्। अथ तदनन्तरं बाणप्रयोगानन्तरं दधौ, दधौ इत्युक्ते अकरोत्, कः दधौ? सः चिरजीवी, हृताक्षिमात्रः, तां दधौ यथार्थसंज्ञां दधौ। कया दधौ? केन कारणेन तदभवत्? तत् कृपया, श्रीरामस्य कृपया, एक पदम् अत्र समस्तपदं तस्य कृपया इति अर्थः। कीदृशः सन् दधौ? चिरजीवी सन् दधौ। किम् इति यथार्थसंज्ञां दधौ? कीदृशः सन् इत्युक्ते हृताक्षिमात्रः सन् दधौ। किम् इति नामकरणं? चिरजीवी इति यथार्थसंज्ञां। काकरूपं धृत्वा आगतवान्, कुचेष्टितमपि कृतवान्। यथा काकस्य इतरनामानि सन्ति चिरजीवी एकाक्षी इति, एषः अपि तदनुरूपं नाम एव प्राप्तवान्। किं नाम चिरजीवी जातः? यदि सामान्यनियमः भवति चेत् तस्य मरणदण्डनमेव अभविष्यत् अन्यस्य कस्यचित् हस्ते, किन्तु कृपालुः श्रीरामस्य कृपया सः कृपालोः श्रीरामस्य कृपया सः रक्षितः, अतः चिरजीवी जातः। काकस्य अपरं नाम अपि चिरजीवी। तथैव काकस्य यथा एकाक्षी इति नाम अस्ति, तथैव एतस्य अपि एकमेव नेत्रम् इदानीं रक्षितम्, अपरं नेत्रं तद् नष्टं ब्रह्मास्त्रेण, अतः एकाक्षी इति यथार्थसंज्ञां सः अकरोत्। तस्य नाम अन्वर्थनाम अभवत् इति अर्थः। तस्य अन्वयः भवति सः वीरः वासवि वायसे कुशरूप कुशेषयासनास्त्रं विजहौ, अथ तत् कृपया हृताक्षिमात्रः सः चिरजीवी इति यथार्थसंज्ञां दधौ। सामान्य भावः अत्र सीतां पीडयन्तं काकरूपधरम् इन्द्रसुतं जयन्तं दृष्ट्वा अतुलपराक्रमः श्रीरामः कुशरूपं ब्रह्मास्त्रं प्रयुक्तवान्। तच्च कुशास्त्रं तं काकासुरं दिशि दिशि प्रधावयति स्म, अन्ततो गत्वा कुत्रापि रक्षणम् अप्राप्य सः काकः राममेव शरणं गतः। शरणागतवत्सलः श्रीरामः तस्मै अभयं दत्त्वा तस्य एकमेव नेत्रं दण्डनरूपेण अहरत्। किमपि दण्डनं देयं किल, अनन्तरं त्यक्तं यद् अस्त्रमस्ति तद् कार्यम् अकृत्वा न प्रत्यागच्छति, अतः न्यूनातिन्यूनं किमपि तत्र कोऽपि नाशः भवेदेव, अतः तस्य अक्षिमात्रं नष्टम्। अनेन सप्राणः सन् सः काकासुरः इन्द्रपुत्रः चिरजीवी एकदृष्टिः इति काकसंज्ञाम् अन्वर्थाम् अकरोत् इति भावः। काकस्य अन्य पर्यायपदानि भवन्ति चिरजीवी, एकदृष्टिः, मौकुलिः, पिकवर्धनः। वयं बाल्ये अपि पठामः पिकः स्व अण्डं काकस्य नीडे निक्षिपति इति, तस्य वर्धनमपि काकः करोति, अतः पिकवर्धनः इति काकस्य अपरं नाम। एतावता वयम् अद्य समापयामः, एकं श्लोकं सकृत् पठामः। पुष्यरूपकुशेषयासनास्त्रम् विजहौ वासविवायसे स वीरः अथ तत्कृपया हृताक्षिमात्रम् चिरजीवी स दधौ यथार्थसंज्ञाम्। अत्र वाल्मीकिरामायणे केचन श्लोकाः सन्ति, तान् श्लोकान् यदि वयं पठामः तर्हि पूर्णं प्रसङ्गम् इतोपि सम्यक् अवगच्छामः। अत्र किं कृतवान्, कथं सः कुशेषयासनं ब्रह्मास्त्रं कुशरूपं ब्रह्मास्त्रं क्षिप्तवान् इति वाल्मीकिमहर्षिः वर्णयति। सदर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयत् स दीप्त इव कालाग्निः ज्वालाभिमुखोद्विजम् सः दर्भसंस्तरात् अधः भूमौ आस्तरणम् आसीत् आसनं तस्मिन्नेव शेते स्म रामः. तस्मात् एक कटः इति चिन्तयतु मैट्, ततः एकं कुशं निष्कास्य तत् कुशम् अभिमन्त्रितवान् ब्रह्मास्त्रेण परिवर्त्य प्रेषितवान् तं प्रति एतं काकं प्रति. तद् अभिमुखः कालाग्निज्वालाभिमुखो द्विजं पक्षिं पक्षिणं प्रति प्रेषितवान्. द्विजः अत्र पक्षि. सतं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति, तं दर्भं काकं प्रति प्रेषितवान् चिक्षेप. ततस्तु वायसं दर्भः सोम्बरे अम्बरे अनुजगामः. सः वायसः भीत्या अम्बरे आकाशमार्गेण इतस्ततः धावितवान्. सः तदस्त्रमपि तम् अनुजगाम, तस्य अनुसरणं करोति स्म सर्वत्र. सपित्रा च परित्यक्तः सर्वैश्च परमर्षिभिः त्रिलोकान् सम्परिक्रम्य तमेव शरणं गतः. पिता इन्द्रः, पितुः इन्द्रस्य समीपं गतवान्. पिता इन्द्रः तं परित्यक्तवान्, मया तव रक्षणं न शक्यम्, इतः गच्छ इति. तथा एव सर्वे अपि ऋषयः तस्य रक्षणं कर्तुं न सिद्धाः केऽपि. त्रीन् लोकान् सम्परिक्रम्य सर्वत्र अटित्वा तमेव श्रीरामं शरणं गतः सः वायसः. स तं निपतितं भूमौ शरण्यः शरणागतम् वधार्हम् अपि काकुत्स्थः कृपया पर्यपालयत्. तं भूमौ निपतितं रामस्य चरणयोः पतितं तं काकं भक्तवत्सलः श्रीरामः किं कृतवान्? यद्यपि सः वधार्हः दण्डनार्हः मरणदण्डनं दातुं योग्यः सः, तथापि काकुत्स्थः श्रीरामः तं दयया तस्य परिपालनम् अकरोत्, परिरक्षणम् अकरोत् इति भावः. शान्तिमन्त्रे मन्त्रेण समापयामः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. शान्ति शान्ति शान्तिः. Thank you.